अथ श्री भुवराहाष्टोत्तरस्तवः श्वेतं सुदर्शनदराङ्कितबाहुयुग्मं दंष्ट्राकरालवदनं धरया समेतं ब्रह्मादिभिः सुरगणैः परिषेव्यमाणं ध्यायेद्वराहवपुषं निगमैकवेद्यम् श्रीवराहो महीनाथ पूर्णानन्दो जगत्पतिः निर्गुणो निष्कलोऽनन्तो दण्डकान्तकृतव्ययः हिरण्याक्षान्तकृद्देवः पूर्णषाड्गुण्यविग्रहः लयोदधिविहारी च सर्वप्राणिहिते रतः अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः वेदान्तवेद्यो वेदी च वेदगर्भः सनातनः सहस्राक्षः पुण्यगन्धः कल्पकृत्क्षितिवृद्धरिः पद्मनाभः सुराध्यक्षो हेमाङ्गो दक्षिणामुखः महाकोलो महाबाहुः सर्वदेवनमस्कृतः हृषीकेशः प्रसन्नात्मा सर्वभक्तभयापहः यज्ञकृद्यज्ञभृत्साक्षी यज्ञाङ्गो यज्ञवाहनः हव्यभुग्हव्यदेहश्च सदा व्यक्तः कृपाकरः देवहूतिर्गुरुः कान्तो धर्मगुह्यो वृषाकपिः स्रवत्तुण्डो वक्रतुण्डो नीलकेशो महाबलः पूतात्मा वेदनेता च वेदहर्तृशिरोहरः वेदान्तविद्वेदगुह्यः सर्ववेदप्रवर्तकः गम्भीराक्षस्त्रिधामा च गम्भीरात्मामरेश्वरः आनन्दवनगो दिव्यो ब्रह्मनासासमुद्भवः सिन्धुतीरनिवासी च क्षेमकृत्सात्वतां पतिः इन्द्रत्राता जगत्त्राता चेन्द्रदोर्दण्डगर्वः भक्तवश्यः सदा व्यक्तो निजानन्दो रमापतिः श्रुतिप्रियः शुभाङ्गश्च पुण्यश्रवणकीर्तनः सत्यकृत्सत्यसङ्कल्पः सत्यवाक्सत्यविक्रमः सत्ये निगूढः सत्यात्मा कालातीतो गुणातिगः परञ्ज्योतिः परन्धाम परमः पुरुषः परः कल्याणकृत्कविः कर्ता कर्मसाक्षी जितेन्द्रियः कर्मकृत्कर्मकाण्डस्य सम्प्रदायप्रवर्तकः सर्वान्तगः सर्वगश्च सर्वदः सर्वभक्षकः सर्वलोकपतिश्रीमान् श्रीमुष्णेशः शुभेक्षणः सर्वसाक्षी सर्वदेवप्रियः सर्वेश्वरो हरिः अष्टोत्तरशतं पुण्यं वराहस्य महात्मनः सर्ववेदाधिकं सर्वकामदं सततं जपेत् सततं प्रातरुत्थाय सम्यगाचम्यवारिणा कृतासनोजितक्रोधः पश्चान्मन्त्रमुदीरयेत् ब्राह्मणो ब्रह्मविद्यां च क्षत्रियो राज्यमाप्नुयात् भुक्तिं मुक्तिं च लभते श्रीवराहप्रसादतः इति श्रीवराहपुराणे श्रीमुष्णमाहात्म्ये धरणीवराहसंवादे श्रीभुवराहाष्टोत्तरस्तवः।